एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्रिणा शेरबहादुरदेवाभिधेन जसपा नाम्नो जनता समाजवादी दलस्य पक्षतः सर्वकारे सहभागिनः चत्वारो मन्त्रिणः ह्यः पदमुक्ताः कारिताः सन्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपालस्य संविधानस्य अनुसारेण प्रधानमन्त्रिणः देवाभिधस्य परामर्शेन वर्तमान मन्त्रिपरिषदः संघीय विषय सामान्य प्रशासन मन्त्रिणं राजेन्द्र प्रसाद श्रेष्ठं कृषि पशु पक्षी विकास मन्त्रिणं मृगेन्द्र कुमार सिंह यादवं भौतिक पूर्वाधार यातायात मन्त्रिणं मोहम्मद इस्तियाक राई इत्यमुं वन वातावरण मन्त्रिणं प्रदीप यादवं च पदमुक्तान् विधाय एतेषां मन्त्रालयानां कार्यभारः प्रधानमन्त्रिणा निर्वहणत्वेन निर्धारित इति राष्ट्रपति कार्यालयस्य सहायक प्रवक्त्रा केशव प्रसाद घिमिरेभिधेन ह्यः प्रकाशितायं विज्ञप्तो ज्ञापितं वर्तते। एवमेव राष्ट्रपतिना भण्डारिणा विधिन्याय संसदीय विषय मन्त्रिणः गोविन्द प्रसाद शर्मा कोइराला विधस्य संघीय संसदः सदस्यतायाः प्राप्तेः असक्यत्वात् पदावधेः समाप्तेः कारणेन प्रधानमन्त्रिणा देवाभिधस्य परामर्शेन विधिन्याय संसदीय विषय मन्त्रालयस्य कार्यभारः संचार सूचना प्रविधि मन्त्रिणा ज्ञानेन्द्र बहादुर कार्किणा निर्वहणत्वेन निर्धारित इति विज्ञप्तौ उल्लिखितं वर्तते। निर्वाचन आयोगेन प्रत्यक्ष निर्वाचन प्रणाल्या पक्षस्य मतपत्राणां मुद्रण कार्यं प्रारब्धं वर्तते। प्रतिनिधिसभाया प्रदेशसभानां च निर्वाचनस्य कृते क्षेत्रगत रूपेण पृथक् पृथक् भवनत्वेन प्रत्यक्ष निर्वाचन प्रणाल्या पक्षस्य 95.7% विधानि प्रतिनिधिसभाया समानुपातिक पक्षस्य एकविधं प्रदेशसभानां समानुपातिक निर्वाचन प्रणाल्या पक्षस्य 7% चेति आहत्य 3.5% मतपत्राणां मुद्रण कार्यं विद्यमानम् अस्तीति आयोगस्य सहायक प्रवक्त्रा ऋषिराम भूषाल अज्ञापयत। हिमालयीय जनपदानां उच्च पर्वतीय जनपदानां च कृते मतपत्राणां मुद्रण कार्यम् आदौ विधीयते। मुद्रितानि मतपत्राणि तत्त जनपदेषु सैव प्रेष्यते इति च सहायक प्रवक्ता भूषाल ज्ञापितवान्। मतपत्रेषु प्रत्याशीनाम् अन्तिम नामावल्या सूच्यां समाविष्टानां प्रत्याशीनां निर्वाचन चिह्नानि एव स्थापयिष्यन्ते इति आयोगेन ज्ञापितं वर्तते। निर्वाचन आयोगेन आचार संहिताया वैपरीत्येन राजनीतिक दलानां प्रत्याशीनां च सम्बन्धे मत सर्वेक्षणं न कर्तुम् अनुरुद्धं वर्तते। आगामिनो मार्च शीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य निर्वाचनस्य प्रयोजनाय निर्वाचन आचार संहिताया क्रियान्वयनस्य सन्दर्भे आचार संहिताया वैपरीत्येन कतिपय व्यक्तिभिः सामाजिक सञ्जालं प्रयुज्य राजनीतिक दलानां प्रत्याशीनां च सम्बन्धे मत सर्वेक्षणं परिणामस्य सार्वजनिकरणं च विहिते इति सूचना प्राप्ते कारणात् तन्न कर्तुम् अनुरुद्धमिति आयोगस्य सहायक प्रवक्ता कमल भट्टराई अज्ञापयत। आचार संहितायां प्रत्याशीनां मनोनयन पत्र पञ्जीकरणस्य दिनांकात् मतदानस्य असम्पन्नतां यावत् प्रत्याशीनां राजनीतिक दलानां वा मतपरिणामस्य सम्बन्धे मत सर्वेक्षण सम्पादनं सर्वेक्षणस्य परिणाम प्रकाशनं च निषिद्धे स्तः। एवमेव निर्वाचने प्रतिकूल प्रभावत् भावनत्वेन अवरोधनत्वेन विचाराभिव्यक्तेः प्रचार प्रसार कस्यापि वैद्युत सामग्र्याः उत्पादनस्य सामाजिक सञ्जाले प्रकाशनस्य च अन्यैः प्रकाशिताया सामग्र्याः विस्तारणस्य च निषेधनकारिणी व्यवस्था आचार संहितायाम् उल्लिखिता स्थिति सहायक प्रवक्ता भट्टराई अवोचत। निर्वाचन आयोगेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य कृते निर्धारितायाः निर्वाचनाचार संहितायाः विपरीततया कार्यं विदधतः सर्वकारीय कर्मचारिणः प्राध्यापकान् शिक्षकान् अन्य सम्बद्ध व्यक्तिश्च तत्कालं विभागीय दण्डयितुं सम्बद्ध कार्यालय प्रमुखाः निर्दिष्टाः सन्ति। आयोगस्य निर्देशनस्य अनुसारेण दण्डनस्य असम्पादकान् कार्यालय प्रमुखान् निर्वाचन आयोगस्य 370/2000 विक्रम वर्षीयाधिनियमस्य अनुसारेण आयोगस्य सचिवालयेन दण्डयितुं च निर्णीतम् अस्तीति आयोगस्य प्रवक्ता सालिग्राम शर्मा पौडेलः सूचयत। राजनीतिक दलेभ्यः प्रत्याशिभ्यश्च सम्भावितस्य निर्वाचनाचार संहितायाः उल्लंघनस्य निर्वाचन व्ययस्य च सम्बन्धे स्वस्य स्थानीय संरचनां परिचाल्य सूक्ष्मरूपेण अनुगमनं विधाय च तस्य विवरणम् आयोगे प्रस्तोतुं नेपाल प्रहरी राष्ट्रिय अनुसन्धान विभागश्च आयोगेन निर्दिष्टौ स्तः। नेपाली कांग्रेस दलेन प्रतिनिधि सभाया प्रदेश सभानाम च निर्वाचनस्य कृते सत्तारूढ गठबन्धनस्य प्रत्याशिनाम विरूद्धे प्रस्तुत प्रत्याशिता विद्रोही प्रत्याशिन पञ्चानाम दिनानाम अभ्यन्तरे स्वस्य प्रत्याशिताम निष्क्रियाम विधातुम अनुरूद्धा सन्ति। ह्यः विज्ञप्तिम प्रकाश्य कांग्रेस दलेन अस्यैव आश्विनस्य एकत्रिंशम दिवसम यावत् स्वस्य प्रत्याशिताया निष्क्रियीकरणस्य घोषणाम विधाय वक्तव्ये प्रकाशिते विद्रोही प्रत्याशिन तेषाम प्रस्तावका समर्थकाश्च न दण्ड्यन्ते इति स्पष्टीकृतं वर्तते। इतत्पूर्वं कांग्रेस दलेन परह्यः बुधवासरे एव विद्रोही प्रत्याशिनः तेषां प्रस्तावकाः समर्थकाश्च पञ्चानां वर्षाणां कृते दलात् निष्कासिताः सन्तीति उक्तम् आसीत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश अद्य बसति। दल केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन ह्य विज्ञप्तिम प्रकाश्य उपवेश अद्य द्विवादने सानेपावर्तिनी दल केन्द्रीय कार्यालय उपविशतीति ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयति संविधानस्य रक्षायै प्रतिगमन विरोधिने युद्धाय च गठबन्धनम् आवश्यकम् वर्तते। नेपाली कांग्रेस दलस्य तनहु जनपदीयेन प्रथम निर्वाचन क्षेत्रेण गतदिने दमौली स्थाने आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेल तर्कयद ग्रामाणाम् दलितानाम् महिलानाम् अल्पसंख्यकानाम् उपेक्षित वर्गस्य जनजातीनाम् च अधिकाराणाम् रक्षायै गठबन्धनम् अपरिहार्यम् अस्ति। नेकपा एमाले दलस्य नेता डाक्टर भीमरावल दलेन विधि विपरीततया स्वेच्छाचारी रूपेण च आगामिने निर्वाचनाय प्रतिस्पर्धितुम् अनुमति प्रदत्ता स्थिति आरोपयति। नेत्रा रावलेन ह्य काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने स्वाभिमानस्य सुशासनस्य न्यायस्य च पक्ष ऐक्यबद्धताया ज्ञापनस्य कारणेन आत्मनः प्रतिस्पर्धाय अनुमति प्रदानात् वञ्चितीकरणम् षड्यन्त्रपूर्णम् अस्ति आरोपितमस्ति। नेता रावल आत्मना एमाले दलम् न यद्यते इति चर्चयन् स्वेच्छाचारिण निर्णयस्य समयस्य गतेः दलस्य मतस्य अनुसारेण विरोधो विधास्यते इत्यवोचत्। पूर्व प्रधानमन्त्री डाक्टर बाबुराम भट्टराई भासते राष्ट्रे अधिगतानाम् राजनीतिकोपलब्धीनाम् रक्षणाय निर्मितम् वामलोकतान्त्रिकम् गठबन्धनम् प्राकृतिकम् स्वाभाविकम् च वर्तते। काष्ठमण्डपस्य नागार्जुन नगरपालिकायाः चतुर्थवडा क्षेत्रस्य वाफलस्थाने ह्य आयोजिते कार्यक्रमे नेता डाक्टर भट्टराई वर्तमान व्यवस्थायाम् एकस्य दलस्य विकल्पः अपरम् भवति त्यतः स्वतन्त्र प्रत्याशिता लोकतन्त्र विरोधिनी अस्तीति आरोपयत। कार्यक्रमे संस्कृति पर्यटन नागरिको उड्डयन मन्त्री जीवन राम श्रेष्ठ देशम् संविधानम् लोकतन्त्रम् च रक्षितुम् वाम लोकतान्त्रिक गठबन्धनस्य भूमिका महत्वपूर्ण अस्ति त्यतः निर्वाचने जनतया लोकतन्त्रस्य संविधानस्य च पक्षधराः विजयिनः कारयिष्यन्ते इत्यवोचत्। गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन सह नेपालस्य कृते भारतीय राजदूतः नवीन श्रीवास्तव ह्यः मेलवार्ताम् अकरोत्। गृहमन्त्रालय सम्पन्नायाम् तस्याम् मेलवार्तायाम् एतयोर्मध्ये नेपाल भारतयोः पारस्परिक सम्बन्धस्य सहयोगस्य आदान प्रदानयोश्च विषय विमृष्टम् आसीत् इति समाचाराः।